श्रीयादिनाथाय नमोऽस्तु तस्मै नोपदिष्टा हठयोग विद्या विभ्राजते प्रोन्नतराजयोगमारूढुमिच्छो रथिरोहिणीव। द्वितीय उपदेशस्य अन्तिमस्तरे स्मः। पञ्चषष्टितमः श्लोकः। विधिवत् कुम्भकं कृत्वा रेचयेदिडया निलं वातपित्तश्लेष्महरं शरीराग्निविवर्धनम्। नाम प्रयोजनं पञ्चषष्टितमश्लोकस्य उत्तरार्धभागे अस्ति, षट्षष्टितमश्लोके पूर्णतया अस्ति, सप्तषष्टितमश्लोके अपि अस्ति। तान् श्लोकान् नाम सार्धश्लोकद्वयम् अहं वाचयामि। वातपित्तश्लेष्महरं शरीराग्निविवर्धनं कुण्डलीबोधकं क्षिप्रं पवनं सुखदं हितं ब्रह्मनाडीमुखे संस्थकफाद्युर्गलनाशनम् सम्यग्गात्र समुद्भूत ग्रंथित्रय विभेदकम् विशेषेणैव कर्तव्यम् हस्त्राख्यम् कुम्भकम् त्विदम्।
वातपित्तश्लेष्महरं शरीराग्निविवर्धनं कुण्डलीबोधकं क्षिप्रं पवनं सुखदं हितं ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनं संयग्गात्र समुद्भूतग्रंथित्रय विभेदकम् विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम्। वातपित्तश्लेष्महरं शरीराग्निविवर्धनं कुण्डलीबोधकं क्षिप्रं पवनं सुखदं हितं ब्रह्मनाडीमुखे संस्थकपाद्यर्गलनाशनं संयग् गात्रसमुद्भूतग्रन्थित्रयविभेदकं विशेषेण एव कर्तव्यं भस्त्राख्यं कुम्भकं तु इदम्।
वातपित्तश्लेष्महरं वातपित्तश्लेष्माणः नाम वातपित्तकफाः, तेषां सर्वेषामपि निवारणं करोति। नाम पूर्वं यथा अस्माभिः चर्चितम्, इतरप्राणायामापेक्षया अस्य भस्त्रिकाप्राणायामस्य वैशिष्ट्यमस्ति यत् एतत् दोषत्रयस्यापि शमनं करोति, समत्वम् आपादयति इति। अतः वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् अपि अस्ति, शरीरे नाम जठराग्निः तस्य उद्दीपनमपि भवति। अनन्तरं कुण्डलीबोधकं, तदेव किल अग्रिमं, कुण्डलीबोधकं, कुण्डलिनी या अस्ति मूलाधारे, तस्याः तत्र बोधनम् उद्बोधनं करोति भस्त्रिकाप्राणायामः। अनन्तरं क्षिप्रमेव नाम शीघ्रमेव कुण्डलिन्याः उद्बोधनं करोति, यः शीघ्रं तत्र निरन्तरं भस्त्रिकायाः अभ्यासं करोति तस्य शीघ्रमेव कुण्डलिनी बोधः भवति। अनन्तरं पवनं, पवनं नाम पवित्रीकरोति इत्यर्थः, शुद्धं करोति इत्यर्थः, शोधकप्राणायामः एषः। सुखदं, सुखमपि ददाति नाम मनसः समाधानमपि ददाति। अनन्तरं हितं, हितं नाम मनसः शान्तिः अपि भवति, हितं नाम आरोग्यस्यापि सौकर्यम् उत्पद्यते इति। अतः सुखदं हितम् इति उभयथापि, मनसः अपि समाधानं भवति, आरोग्यस्यापि तत्र विशिष्टतया तत्र प्रयोजनं सिद्ध्यति। अन्यत् ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम्, ब्रह्मनाडी नाम सुषुम्ना, सुषुम्ना नाडी या अस्ति तस्याः मुखे कफादिदोषाः भवन्ति चेत् तत्र प्राणस्य ब्रह्मनाड्यां प्रवेशः न सिद्ध्यति, अतः ब्रह्मनाड्याः मुखे विद्यमानकफादीनामपि नाशः भवति इति। अनन्तरं सम्यग्गात्रसमुद्भूतग्रन्थित्रयविभेदकम् इति, शरीरे योगशास्त्रदृष्ट्या तन्त्रशास्त्रदृष्ट्या ग्रन्थित्रयं वर्तते इति। किं तद् ग्रन्थित्रयम् इति चेत् ब्रह्मग्रन्थिः, विष्णुग्रन्थिः, रुद्रग्रन्थिः इति ग्रन्थित्रयं भवति। त्रयाणामपि ग्रन्थीनां भेदनं नाम तत्र ब्रह्मनाडीद्वारम् अवरुद्ध्य कुण्डलिनी वर्तते, तस्याः उद्बोधनं कृत्वा अपसारयति एषः प्राणायामः। अन्यत् ब्रह्मनाड्यामेव कदाचित् नाम ब्रह्मनाड्याः मुखे कुण्डलिनी यथा एका तत्र अवरोधिका एवमेव तत्र कफादि दोषाः अपि तत्र अवरोधकाः भवन्ति तेषामपि निवारणं करोति न केवलं तावत् भस्त्रिकाकरणेन पुनः किं भवति प्राणस्य ब्रह्मनाड्यां प्रवेशः भवति किञ्च ब्रह्मनाड्यां तत्र स्तरत्रयमस्ति ग्रन्थित्रयमस्ति ब्रह्मग्रन्थिः रुद्रग्रन्थिः विष्णुग्रन्थिः इति त्रयः त्रीणि पर्वाणि भवन्ति पर्व इत्युक्ते अवगम्यते वा नाम यथा इक्षुदण्डे पर्व भवति किल तथा एवं ब्रह्मनाड्यामपि पर्वत्रयम् इति उच्यते ब्रह्मग्रन्थिः विष्णुग्रन्थिः रुद्रग्रन्थिः इति ब्रह्मग्रन्थिः कुत्र अस्ति इति चेत् मूलाधारे भवति ब्रह्मग्रन्थिः अनन्तरं नाम ब्रह्मग्रन्थी नाम तत्र बहूनां नाडीनां समावेशः इत्यर्थः ग्रन्थिः इति शब्दस्य नाट् इति अर्थः नाट् किं नाट् एतत् इति चेत् बहूनां नाडीनां तत्र समावेशः भवति तत्तत् नाम शरीरे द्वासप्ततिसहस्रं नाड्यः सन्ति इति शास्त्रे अस्ति एतत् दीस् आर् द त्री नोड्स् नाम त्री प्लेसस् वेर् द नाडीस् कन्वर्ज् विशिष्य तत् सुषुम्नायाः नैकट्यमपि भजते तत्र मूलाधारो नाम तत्र शरीरस्य अधोभागः यः अस्ति तत्र विद्यमाननाडीनां समावेशः तत्र ब्रह्मग्रन्थ्यां भवति तदपि तत् 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 तदतीत्य तस्य भेदनं कृत्वा अग्रे गच्छति विष्णुग्रन्थिः इत्युच्यते विष्णुग्रन्थिः मणिपूरकचक्रे भवति मूलाधारे ब्रह्मग्रन्थिः मणिपूरकं नाम तत्र नाभिप्रदेशः नाभिप्रदेशे विष्णुग्रन्थिः इत्युच्यते तत्रापि बहूनां नाडीनां समावेशः भवति तमपि समावेशं भित्त्वा अग्रे तत्र सुषुम्नायां तत्र नाडी तत्र प्राणः उपरि ऊर्ध्वं गच्छति किञ्च रुद्रग्रन्थिः रुद्रग्रन्थिः कुत्र भवति इति चेत् आज्ञाचक्रे भवति आज्ञाचक्रं नाम भ्रुवोरन्तरे भ्रूमध्यप्रदेशः तत्र रुद्रग्रन्थिः अस्ति इति उच्यते तत्र तामपि ग्रन्थिं विभिद्य तत्र प्राणः उपरि उड्डयनं करोति इति अस्य अर्थः सम्यक् गात्रसमुद्भूतग्रन्थित्रयविभेदकं नाम एतेषां ग्रन्थीनां भेदनेनैव किं भवति इति चेत् प्राणस्य गतिः उपरि नाम सुषुम्नाद्वारा प्राणस्य ऊर्ध्वगतिसन्दर्भे अपि किं भवति एते त्रयः ग्रन्थयः भवन्ति अवरोधकाः सुषुम्नायाः अन्तः एव इति एतद् ज्ञायते अतः तत्सर्वं भित्त्वा प्राणः अग्रे गच्छेत् तदर्थं भस्त्रिकाप्राणायामः सः करोति इति वयं पश्यामः तत्र ललितासहस्रनाममध्ये अपि रुद्रग्रन्थिविभेदिनी विष्णुग्रन्थिविभेदिनी ब्रह्मग्रन्थिविभेदिनी इत्यादि देव्याः स्तुतिः अपि तत्र अस्माभिः श्रूयते अतः एवं ग्रन्थित्रयस्य विभेदनं भस्त्रिकाप्राणायामेन सिद्ध्यति अतः विशेषेणैव कर्तव्यम् अतः विशिष्टप्रयत्नेन सावधानं सम्यक् गुरुमुखाद् अवगत्य अयं प्राणायामः कर्तव्यः अनेन किं सिद्ध्यति हितमपि सिद्ध्यति सुखमपि सिद्ध्यति मनसः शमनं शान्तिः अपि लभ्यते शरीरस्य आरोग्यं सिद्ध्यति अनन्तरं किं भवति तत्र ब्रह्मनाडीप्रवेशे ये अवरोधभूताः तेषाम् अपसारणं भवति कफादीनां कुण्डलिन्यादीनां किञ्च ब्रह्मनाडीं प्रविश्य प्राणः यथा ग्रन्थित्रयं विभिद्य ऊर्ध्वं गच्छेत् तत्रापि अयं भस्त्रिकाप्राणायामः सहकरोति इति कारणेन विशेषेणैव कर्तव्यम् इति वदति अतः एव अत्र प्राणायामसरण्याम् अयं पञ्चमप्राणायामत्वेन स्थापितः इतः पूर्वतनप्राणायामाः वातं वा पित्तं वा कफं वा शमयति प्राणायामः पूर्वतनप्राणायामः तादृशमस्ति तादृशः अस्ति अयं तु प्राणायामः सर्वविध दोषाणामपि शमनं कर्तुं शक्नोति अतः विशिष्टः अयं भस्त्रिकाप्राणायामः इति एवं पञ्चप्राणायामाः अस्माभिः दृष्टाः अग्रे भ्रामरीप्राणायामः अथ भ्रामरी अष्टषष्टितमः श्लोकः वेगाद्घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दं योगीन्द्राणामेवमभ्यासयोगात् चित्ते जाता काचिदानन्दलीला।
वेगाद्घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दं योगीन्द्राणामेवमभ्यासयोगात् चित्ते जाता काचिदानन्दलीला। वेगात् घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दं योगीन्द्राणाम् एवम् अभ्यासयोगात् चित्ते जाता काचित् आनन्दलीला।
अत्र भ्रामरी प्राणायामः अत्र किम् अस्ति, वेगात् घोषं पूरकं भृङ्गनादं, नाम पूरकः पूरकप्राणस्य स्वीकारः करणीयः, तत्र नासापुटाभ्यां तत्र प्राणस्य आचमनं करणीयं। कथम् आचमनं करणीयं? वेगात् सघोषं नाम शब्देन सह इति क्रियते किल, किञ्चित् शब्देन सह वेगेन पूरकः करणीयः। तत्र सा भृङ्गनादवत् नाम भृङ्गो नाम पुमान्, पुमान् मधुपः भृङ्गः इत्युच्यते, पुमान् भ्रमरः भृङ्गः इत्युच्यते। तद्वत् वेगेन किञ्चित् कर्कश शब्दयुक्ततया श्वासस्य स्वीकारः करणीयः भ्रामरी प्राणायामे। अनन्तरं प्राणस्य रेचनं करणीयं, रेचकं रेचकस्य अनुष्ठानं कथं करणीयं? मन्दमन्दं करणीयम्, अत्यन्तं सावधानतया करणीयं। रेचनसमये किं करणीयम् इति चेत् भृङ्गीनादं तद् उत्पा भृङ्गीनादः तत्र उत्पादितो भवेत्। भृङ्गीनादो नाम स्त्रीभ्रमरविशेषः, तत्र भृङ्गी इति उच्यते, अतः भृङ्गीनादं तत्र रेचनसमये कुर्यात् इति। अत्र पुमान् भ्रमरः स्त्रीभ्रमरः इत्यत्र पुंस्त्वस्त्रीत्वयोः तत्र सः शब्दः श्रोतव्यः, सः अनुकरणीयः इति नार्थः। अहमपि तद्विषये किञ्चित् अन्वेषणं कृतवान्, पुमान् भ्रमरः कथं शब्दं करोति, स्त्रीभ्रमरः कथं शब्दं करोति इत्यादि गत्वा अन्वेषणे तत्र तात्पर्यं नास्ति। अत्र पुंस्त्वस्त्रीत्वयोः तत्र का विवक्षा इति चेत्, एकत्र कर्कशतया वेगेन नाम उच्छ्वाससमये कर्कशतया वेगेन सशब्दं प्राणस्य स्वीकारः, यदा तत्र रेचकानुष्ठानं क्रियते तत्र सुमधुरध्वनिः अत्र इति मधुर ध्वनिसहिततया मन्दं सशब्दं तत्र मकारशब्दपुरःसरं रेचनं करणीयं, तावदेव तात्पर्यम् अत्र भाति। अतः एवं क्रियते चेत् किं भवति इति चेत्, योगीन्द्राणाम् एवमभ्यासयोगात् एवं क्रमेण निरन्तरम् अभ्यासे क्रियमाणे सति योगीन्द्राणां किं भवति, चित्ते काचित् आनन्दलीला जाता, चित्ते तेषां मनसि आनन्दलीला भवति इत्यर्थः। तत्र वर्तमानकालत्वेन विपरिणम्य अवगन्तव्यं, जाता इति भूतकाले अस्ति, तत्र भूतकाले त्वप्रत्ययः अस्ति, परन्तु तत् वर्तमानकाले विपरिणम्य अर्थः अवगन्तव्यः, जायते इत्यर्थः। एवं ये योगीन्द्राः कुर्वन्ति चित्तस्य शान्तिः भवति इति। अत्र अत्रापि वैशिष्ट्यं पश्यतु, पूर्वतनपञ्चप्राणायामः विशिष्य शरीरदोषशमनपराः, अत्र भ्रामरी नाम भस्त्रिकाप्राणायामः अपि तत्र दोषत्रयनिवारकत्वेनैव तस्य प्राधान्यमस्ति, अन्यानि प्रयोजनानि अपि सन्ति, ते अर्थवादभूताः वा इति अस्माभिः चिन्तनीयं, परन्तु अयं प्राणायामः कः, भ्रामरी प्राणायामः चित्तस्य समाधानपरः एव, शरीरे अस्य कोऽपि सम्बन्धः नास्ति, चित्ते आनन्दलीलाम् उत्पादयति। आनन्दलीला नाम तत्र सन्तोषनर्तनं नृत्यं तद्भवति इति, मनः सन्तोषेण नृत्यति एवं भ्रामरी प्राणायामस्य अनुष्ठानेन। पूर्वतन पञ्चप्राणायामाः प्राधान्येन शरीर शारीरिकदोषनिवारकाः प्राधान्येन, अयं तु मनःसमाधानप्रदायकः प्राणायामः। कः प्राणायामः?
भ्रामरी प्राणायामः।
भ्रामरी प्राणायामः, इतोपि अवशिष्टौ द्वौ प्राणायामौ, मूर्छा प्लाविनी इति द्वौ प्राणायामौ अवशिष्टौ। अग्रिमश्लोकः, पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः प्रेचयेन्मूर्चनाख्येयं मनोमूर्च्छासुखप्रदा।
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः रेचयेन्मूर्च्छनाख्येयं मनोमूर्च्छासुखप्रदा। पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः रेचयेत् मूर्च्छनाख्या इयं मनोमूर्च्छा सुखप्रदा।
मूर्च्छा इति प्राणायामः। मूर्च्छा इत्युक्ते स्टूपर् इव, स्टूपर् नाम इन्द्रियाणां मनसः च स्तब्धता, इन्द्रियाणां मनसः च अक्रियत्वं तादृशं भवति। तदेव फलम् अस्य प्राणायामस्य। कथं तद्भवति इति चेत्, पूरकान्ते सम्यक् तत्र श्वासः स्वीकरणीयः अथवा वायोः आचमनं बहु सम्यक् करणीयं गाढ। अनन्तरं जालन्धरबन्धः करणीयः। कथं जालन्धरबन्धः करणीयः इति चेत्, गाढतरं बद्ध्वा जालन्धरं, सम्यक् अत्यन्तं गाढतया जालन्धरबन्धो नाम कण्ठे यः बन्धः जायते, सः जालन्धरबन्धः, टकिङ्ग् इन् द चिन्, तदेव जालन्धरबन्धः इत्युच्यते। सः जालन्धरबन्धः कथं करणीयः, गाढतरं करणीयः। अनन्तरं किं करणीयं, शनैः रेचनं करणीयं, सम्यक् पूरणं करणीयम्, अनन्तरं गाढतया जालन्धरबन्धस्य अनुष्ठानं करणीयं। नाम कुम्भके, कुम्भकसन्दर्भे खलु तत्र बन्धाः अनुष्ठीयन्ते, कुम्भकसन्दर्भे विशिष्य गाढतया जालन्धरबन्धः कर्तव्यः। जालन्धरबन्धस्य अन्ते तावत् शनैः श्वासस्य रेचनं करणीयम्, तावदेव प्रक्रिया। अनया प्रक्रियया किं जायते इति चेत्, मनोमूर्च्छा भवति, मनः स्तब्धमिव भवति, मनः इन्द्रियाणि च तेषां चलनं न भवति, तानि निश्चलानि भवन्ति इत्यर्थः। यञ्च सुखप्रदा, नाम चाञ्चल्यादिकं निवार्यते, परन्तु कार्यमपि न करोति मनः। कश्चित् स्थाणुवत् निष्क्रियः, इन्द्रियचेष्टारहितः, मनश्चेष्टारहितः तिष्ठति। कियत्पर्यन्तं तिष्ठति, यावत् सम्यक् तेन अयं प्राणायामः अनुष्ठितः, यावान् तस्य प्रभावः, तावत्पर्यन्तं तस्याम् अवस्थायां तिष्ठति। तदनन्तरं तस्य प्रभावे निर्गते वयं सामान्यमानसिकस्थितिं प्राप्तुम् अर्हति। नाम अत्र अस्मिन् प्राणायामे यथा दृश्यते, आरोग्यदृष्ट्या किमपि नास्ति अत्र, काचित् सिद्धिः, मूर्छनारूपसिद्धिः काचित् अत्र दृश्यते। काचित् योगिनाम् इदम् आवश्यकं भवति इति भाति, नाम ते अत्यन्तं लौकिकव्यवहारात् ते श्रान्ताः, तत्र इन्द्रियादीनां स्थगनं कर्तुम् इच्छन्ति चेत् एवं मनोमूर्छा, ते मनोमूर्छां कृत्वा तत्र सुखेन स्थातुम् अर्हन्ति। अथवा वनादिषु यदा ते अनुष्ठानपराः भवन्ति, अस्माभिः श्रूयते किल, यदा प्राणिनः, क्रूरप्राणिनः आयान्ति, यदा मूर्छवत् मृतवत् यदि कश्चित् तिष्ठति, तदा प्राणिनः समीपम् आगच्छन्ति वा, आगत्यापि हिंसां न कुर्वन्ति, निष्प्राणः अयम् इति मत्वा ते दूरं गच्छन्ति। तस्मात् तदर्थं प्रायः उपयुक्ता इयं काचित् सिद्धिः तावदेव अस्मिन् प्राणायामे, मूर्छनाख्या सिद्धिः काचित् उच्यते। या अस्य अतः अस्य अभ्यासः कुत्रापि नास्ति, कस्मिन्नपि योगसम्प्रदाये अस्य अभ्यासः न दृश्यते। नाम इदानीन्तनप्रसिद्ध लौकिक योगशालाः सन्ति किल, तासु इयं विद्या, अयं प्राणायामः न अनुष्ठीयते सिद्धित्वात्। अग्रे एवमेव अन्या काचित् सिद्धिः, सिद्धिप्रदायकप्राणायामः अग्रे उच्यते, प्लाविनीति। अन्तःप्रवर्तितोदारमारुतापूरितोदरः पयस्य गाधेऽपि सुखात् प्लवते पद्मपत्रवत्।
अन्तःप्रवर्तितोदारमारुतापूरितोदरः पयस्य गाधेऽपि सुखात् प्लवते पद्मपत्रवत्। ಅಂತಃಪ್ರವರ್ತಿತೋದಾರ ಮಾರುತಾ ಪೂರಿತೋದರ ಪಯಸಿ ಅಗಾಧೆ ಅಪಿ ಸುಖಾತ್ ಪ್ಲವತೆ ಪದ್ಮಪತ್ರವತ್.
ಶ್ಲೋಕಾರ್ಧೇನ ಪ್ರಕ್ರಿಯಾ, ಪ್ರಾಣಾಯಾಮ ಪ್ರಕ್ರಿಯಾ. ಶ್ಲೋಕಾರ್ಧೇನ ಫಲಂ ಏವಂ ದ್ವಿಧಾಸ್ತಿ. ಏಕೇನ ಸಮಸ್ತ ಪದೇನ ಅಸ್ಯ ಪ್ರಾಣಾಯಾಮಸ್ಯ ಪ್ರಕ್ರಿಯಾ ಉಕ್ತ ಅಸ್ತಿ. ಅಂತಃ ಪ್ರವರ್ತಿತ ಉದಾರ ಮಾರುತ ಆಪೂರಿತ ಉದರ. ಕಶ್ಚಿತ್ ಯೋಗಿ ಅನುಷ್ಠಾತ ತಸ್ಯ ಉದರಂ ಕಥಂ ಭವೇತ್ ಇತಿ ಚೇತ್ ಅಂತಃ ಪ್ರವರ್ತಿತ ನಮ ಅಂತಃ ಪ್ರೇಷಿತಃ ಭವೇತ್. ಕಹ ಅಂತಃ ಪ್ರೇಷಿತೋ ಭವೇತ್? ವಾಯುಃ. ಕಿಯಾನ್ ವಾಯುಃ? ಉದಾರ. ಉದಾರ ನಮ ಅಧಿಕ ಪ್ರಮಾಣೇನ. ನಮ ಕಹ ಪ್ರೇಷಿತೋ ಭವೇತ್? ಮಾರುತ. ಅಂತಃ ಪ್ರೇಷಿತಃ ಭವೇತ್. ಕಹ ಪ್ರೇಷಿತಃ ಭವೇತ್? ಮಾರುತಃ ಪ್ರೇಷಿತಃ ಭವೇತ್. ಕಿಯತ್ ಪ್ರಮಾಣೇನ? ಉದಾರ ಪ್ರಮಾಣೇನ, ಜನರಸ್ ಕ್ವಾಂಟಿಟಿ. ಅಂತಃ ಪ್ರವರ್ತಿತ ಉದಾರ ಮಾರುತ ಆಪೂರಿತ ನಮ ಸಮಗ್ರತೆಯ ಪೂರ್ಣ. ಕಹ ಪೂರ್ಣ? ಕಿಂ ಪೂರ್ಣ? ಉದರಂ. ತಾದೃಶಂ ಉದರಂ ಯಸ್ಯ ಸಹ ಅಂತ ಪ್ರವರ್ತಿತೋದಾರ ಮಾರುತಾಪೂರಿತ ಉದರ. ಯಸ್ಯ ಉದರಂ ಆಪೂರಿತಂ ಆಸಮಂತಾತ್ ಈಷದಪಿ ಸ್ಥಲಾವಶೇಷಮಂತರ ಸಮಗ್ರತೆಯ ಪೂರಿತಂ ಅಸ್ತಿ ಯಸ್ಯ ಉದರಂ. ಕೇನ ಪೂರಿತಂ? ಮಾರುತೇನ. ಕೀದೃಶೇನ ಮಾರುತೇನ? ಉದಾರ ಮಾರುತೇನ. ಉದಾರ ನಾಮ ಅತ್ಯಂತ ಅಧಿಕ ಪ್ರಮಾಣೇನ ಮಾರುತೇನ. ಕುತ್ರ ಪ್ರವಿಷ್ಟ ಮಾರುತಃ? ಅಂತಃ ಪ್ರವಿಷ್ಟ, ಶರೀರಾಂತ ಪ್ರವಿಷ್ಟ ಯ ಮಾರುತಃ ಅಧಿಕ ಪ್ರಮಾಣೇನ. ತಾದೃಶಂ ಉದರಂ ಯಸ್ಯ ಅಸ್ತಿ ಸಹ ಅಂತಃ ಪ್ರವರ್ತಿತೋದಾರ ಮಾರುತಾ ಪೂರಿತೋದರ. ಕಶ್ಚಿತ್ ಯೋಗಿ ಭವತಿ ನಮ ಬ್ಲೋಟಿಂಗ್ ಆಫ್ ಹಿಸ್ ಅಬ್ಡಮನ್ ಸಹ ಸಮ್ಯಕ್ ಸಹ ಯಹ ಬ್ಲೋಟ್ ಕರೋತಿ ಕಿಂ ಭವತಿ? ಪಯಸಿ ಅಗಾಧೇಪಿ ಸುಖಾತ್ ಪ್ಲವತೆ. ಅಗಾಧೆ ಪಯಸಿ, ಅಗಾಧ ನಾಮ ಅತ್ಯಂತ ಡೀಪ್, ಅತ್ಯಂತಂ ತತ್ರ ಯಥಾ ತಸ್ಯ ಅಧಃ ತಲಂ ನ ದೃಶ್ಯತೆ ತಾವತ್ ಅತ್ಯಂತಂ ಗಭೀರ ಅಧಸ್ಥಲಯುಕ್ತ ಜಲೆ ಅಪಿ ಕಿಂ ಕರೋತಿ ಸಹ? ಸುಖಾತ್ ಪ್ಲವತೆ, ಸುಖೇನ ಸಹ ಹಿ ಫ್ಲೋಟ್ಸ್ ಅರೌಂಡ್ ಪ್ಲವತೆ. ಕಥಂ ಪ್ಲವತೆ? ಪದ್ಮಪತ್ರವತ್ ಪ್ಲವತೆ. ಯಥಾ ಜಲೆ ಪದ್ಮಪತ್ರಂ ಸುಖಾತ್ ಪ್ಲವತೆ ಏವಮೇವ ಯಹ ಅಂತಃಪ್ರವರ್ತಿತೋದಾರ ಮಾರುತಾ ಪೂರಿತೋದರಃ ಅಸ್ತಿ ಸಹ ಅಗಾಧೆ ಅಪಿ ಪಯಸಿ ಜಲೆ ಸುಖಾತ್ ಪ್ಲವತೆ. ಇಯಮಪಿ ಕಾಚಿತ್ ಸಿದ್ಧಿಃ ಇತಿ ವಕ್ತವ್ಯಮೇವ ನಾಸ್ತಿ. ಅತ್ರ ಯೋಗಿ ಕದಾಚಿತ್ ಕಿಂ ಕರ್ತುಂ ಇಚ್ಛತಿ ಇತಿ ಚೇತ್ ಸಹ ಓ ಯದಿ ಅಹಂ ಜನಾನಾಂ ಮಧ್ಯೆ ಭವಾಮಿ ತರ್ಹಿ ಮಮ ಚಿತ್ತವಿಕ್ಷೇಪಃ ಭವತಿ ಅತಃಂ ಅಗಾಧೇ ಪಯಸಿ ನಮ ಸಮುದ್ರೇ ಕುತ್ರಚಿತ್ ಮಧ್ಯೆ ಗಚ್ಚಾಮಿ ತತ್ರ ಗತ್ವಾ ಅನುಷ್ಠಾನಂ ಕರೋಮಿ ತತ್ರ ಪ್ಲವಮಾನಃ ಅನುಷ್ಠಾನಂ ಕರೋಮಿ ಇತಿ ಯದಿ ಚಿಂತಯೇತ್ ತದಾ ಅಯಂ ಪ್ರಾಣಾಯಾಮಃ ತೇನ ಕರ್ತುಂ ಉಚಿತಃ. ಸ್ವ ಅನುಷ್ಠಾನಾರ್ಥಂ ಇದಂ ಉಪಯೋಕ್ತುಂ ಅರ್ಹತಿ ಯೋಗಿ. ಜನಸಂಗ ಪರಿತ್ಯಾಗಃ ಇತಿ ಆರಂಭೆ ಉಕ್ತಂ ಕಿಲ ತದರ್ಥಂ ಅಯಂ ಪ್ರಾಣಾಯಾಮಃ ಸಹ ಕುರ್ಯಾತ್. ಅಥವಾ ಏಷಾ ಕಾಚಿತ್ ಸಿದ್ಧಿಃ ಯಥಾ ಯೋಗಸೂತ್ರೇ ಉಚ್ಯತೆ ಸಮಾಧೌ ಉಪಸರ್ಗಾಃ ವ್ಯುತ್ಥಾನೇ ಸಿದ್ಧಯಃ ಇತಿ. ನಮ ಸಮಾಧಿ ಮಾರ್ಗಂ ಪ್ರತಿ ಯಃ ಗಂತುಂ ಇಚ್ಛತಿ ತಸ್ಯ ಏತಸ್ಯ ಪುನಃ ಪುನಃ ಅಭ್ಯಾಸಃ ವಿಘ್ನಾಯತೆ. ಕದಾಚಿತ್ ಸಂದರ್ಭೇ ಆಗತೆ ಸತಿ ತೇನ ಉಪಯೋಕ್ತವ್ಯಮೇವ, ಪರಂತು ತತ್ಪರಃ ಯದಿ ಸಹ ಭವತಿ ತರ್ಹಿ ಸಹ ವಿಘ್ನಃ ಭವತಿ. ಪರಂತು ನ ನ ನ ಏಷಾ ಮಮ ಸಿದ್ಧಿಃ ಅಹಂ ಲೋಕೇ ಏತತ್ ಪ್ರದರ್ಶಯಿತುಂ ಇಚ್ಛಾಮಿ ಇತಿ ಯದಿ ಸಹ ಇಚ್ಛತಿ ತರ್ಹಿ ಸಹ ಸಿದ್ಧಿರ್ಭವತಿ ಇತಿ. ಏವಂಚ ಅಷ್ಟಕುಂಭಕಾಃ ಅನೇನ ಸಮಾಪ್ತಾಃ. ಪ್ರಥಮ ಪಂಚ ಪ್ರಾಣಾಯಾಮಾಃ ಕುಂಭಕಾಃ ವಿಶಿಷ್ಯ ದೋಷತ್ರಯ ನಿವಾರಕಃ, ವಾತಪಿತ್ತ ಕಫ ಸಂಬದ್ಧ ದೋಷತ್ರಯ ನಿವಾರಕಃ, ತತ್ರ ಶಾಮಕಃ. ಷಷ್ಠಃ ಪ್ರಾಣಾಯಾಮಃ ಕಃ, ಷಷ್ಠಃ ಪ್ರಾಣಾಯಾಮಃ
ಭ್ರಾಮರಿ,
ಭ್ರಾಮರಿ ಪ್ರಾಣಾಯಾಮಃ ಚಿತ್ತ ಆನಂದಪ್ರದಃ. ಸಪ್ತಮಃ ಅಷ್ಟಮಃ ಚ ಯಃ ಪ್ರಾಣಾಯಾಮಃ, ನಮ ಯೌ ಪ್ರಾಣಾಯಾಮೌ ಸಪ್ತಮ ಅಷ್ಟಮೌ ತೌ ತಾವತ್ ಸಿದ್ಧಿ ರೂಪೌ ಇತಿ ಅಷ್ಟಕುಂಭಕಾನಾಂ ವ್ಯವಸ್ಥಾ. ತೇನ ಕ್ರಮೇಣೇವ ತತ್ರ ಕಾಚಿತ್ ಯೋಜನಾ ಅಸ್ತಿ ಅಷ್ಟಸಂಖ್ಯಾಕಸ್ಯ ಪ್ರಾಣಾಯಾಮಸ್ಯ. ಏವಂ ಅತ್ರ ಮೇನ್ ಸ್ಟೇ ಆಫ್ ದಿಸ್ ಚಾಪ್ಟರ್ ಇಸ್ ಕಂಪ್ಲೀಟೆಡ್. ಅಷ್ಟ ಪ್ರಾಣಾಯಾಮ ಅಪಿ ಸಮಾಪ್ತಃ. ಇದಾನಿಂ ಅವಶಿಷ್ಟ ವೈಂಡಿಂಗ್ ಅಪ್ ಆಫ್ ದ ಚಾಪ್ಟರ್, ತದ್ ತತ್ರ ಉಪಸಂಹಾರ ಕ್ರಿಯತೆ ಅಸ್ಯ ಉಪದೇಶಸ್ಯ. ಅಗ್ರೆ ಪ್ರಾಣಾಯಾಮಸ್ತ್ರಿಧಾ ಪ್ರೋಕ್ತೋ ರೇಚ ಪೂರಕ ಕುಂಭಕೈಃ ಸಹಿತಃ ಕೇವಲಶ್ಚೇತಿ ಕುಂಭಕೋ ದ್ವಿವಿಧೋ ಮತಃ.
ಪ್ರಾಣಾಯಾಮಸ್ತ್ರಿಧಾ ಪ್ರೋಕ್ತೋ ರೇಚ ಪೂರಕ ಕುಂಭಕೈಃ ಸಹಿತಃ ಕೇವಲಶ್ಚೇತಿ ಕುಂಭಕೋ ದ್ವಿವಿಧೋ ಮತಃ. ಪ್ರಾಣಾಯಾಮಃ ತ್ರಿಧಾ ಪ್ರೋಕ್ತಃ ರೇಚ ಪೂರಕ ಕುಂಭಕೈಃ ಸಹಿತಃ ಕೇವಲಃ ಚ ಇತಿ ಕುಂಭಕಃ ದ್ವಿವಿಧಃ ಮತಃ.
ಅತ್ರ ಕಿಮಿತಿ ಚೇತ್ ಏತಾವತ್ ಪರ್ಯಂತಂ ಬಹವಃ ಪ್ರಾಣಾಯಾಮಃ ಉಕ್ತಃ ತಾವತಾ ಏವ ಕಾರ್ಯಂ ನ ಸಿದ್ಧಂ. ಏತೇ ಸರ್ವೇ ಪ್ರಾಣಾಯಾಮಃ ಅಪರ ಪ್ರಾಣಾಯಾಮಃ, ಕಶ್ಚಿತ್ ಪರಃ ಪ್ರಾಣಾಯಾಮಃ ಅಸ್ತಿ. ಯಥಾ ವೈರಾಗ್ಯೇ ಅಪರವೈರಾಗ್ಯಂ ಪರವೈರಾಗ್ಯಂ ಇತಿ ಕದಾಚಿತ್ ಭವತ್ಯಾ ಯೋಗಸೂತ್ರೇಷು ಪಠಿತಂ ಸ್ಯಾತ್. ದೃಷ್ಟಾನುಶ್ರವಿಕ ವಿಷಯ ವಿತೃಷ್ಣಸ್ಯ ವಶೀಕಾರ ಸಂಜ್ಞಾ ವೈರಾಗ್ಯಂ ಇತಿ ಅಪರವೈರಾಗ್ಯಂ ತತ್ ಪರಂ ಪುರುಷಖ್ಯಾತೇರ್ ಗುಣ ವೈತೃಷ್ಣ್ಯಂ ಇತಿ ತದ್ ಪರವೈರಾಗ್ಯಂ. ಏವಮೇವ ಪ್ರಾಣಾಯಾಮ ತಸ್ಯ ವಿವರಣಂ ತತ್ರ ದ್ರಷ್ಟುಮರ್ಹತಿ. ಏವಮೇವ ಅತ್ರ ಪ್ರಾಣಾಯಾಮೇ ಅಪಿ ಪರಾಪರ ಭೇದೇನ ಪ್ರಾಣಾಯಾಮೇ ಅಪಿ ದ್ವೈವಿಧ್ಯಂ ಅಸ್ತಿ. ಪ್ರಾಣಾಯಾಮಃ ವಸ್ತುತಃ ಅತ್ರ ದ್ವಿಧಾ ಏವ. ತತ್ರ ಅಪರಃ ಪ್ರಾಣಾಯಾಮಃ ತ್ರಿಧಾ, ನಮ ದ ಲೋಯರ್ ಪ್ರಾಣಾಯಾಮ. ತ್ರಿಧಾ ಪ್ರೋಕ್ತಃ ರೇಚಕಃ ಪೂರಕಃ ಕುಂಭಕಃ ಇತಿ. ಯೋಗಸೂತ್ರೇಷು ಅಪಿ ತತ್ರ ಪ್ರಾಣಾಯಾಮಸ್ಯ ಅಯಮೇ ವಿಚಾರಃ ಉಚ್ಯತೆ. ಸಚ ಬಾಹ್ಯಾಭ್ಯಂತರ ಸ್ತಂಭವೃತ್ತಿಃ ದೇಶಕಾಲ ಸಂಖ್ಯಾ ಪರಿದೃಷ್ಟೋ ದೀರ್ಘ ಸೂಕ್ಷ್ಮಃ ಇತಿ. ತ್ರಿವಿಧಃ ಪ್ರಾಣಾಯಾಮಃ ಬಾಹ್ಯ ಆಭ್ಯಂತರ ಸ್ತಂಭವೃತ್ತಿಃ ಪ್ರಾಣಾಯಾಮಃ ಇತಿ. ಬಾಹ್ಯ ಪ್ರಾಣಾಯಾಮೋ ನಾಮ ಕಿಂ ಕಃ ಇತಿ ಚೇತ್, ಪ್ರಾಣಸ್ಯ ರೇಚನಾನಂತರಂ ಕುಂಭಕಾಭ್ಯಾಸಃ ಬಾಹ್ಯ ಪ್ರಾಣಾಯಾಮ. ಅನಂತ ಆಂತರಿಕ ಪ್ರಾಣಾಯಾಮೋ ನಾಮ ಪ್ರಾಣಸ್ಯ ಆಚಮನಾನಂತರಂ ಕುಂಭನಂ, ಸಹ ಆಂತರಿಕ ಪ್ರಾಣಾಯಾಮ. ತೃತೀಯ ಇತಿ ಚೇತ್ ಸ್ತಂಭವೃತ್ತಿ ಪ್ರಾಣಾಯಾಮ ಇತ್ಯಸ್ತಿ ಯೋಗಸೂತ್ರೇ. ಸ್ತಂಭವೃತ್ತಿ ನಾಮ ಜಸ್ಟ್ ಫ್ರೀಸಿಂಗ್ ವಿತೌಟ್ ರೆಫರೆನ್ಸ್ ಟು ಪ್ರಾಣ ಅಂತಃ ಅಸ್ತಿ ವಾ ಬಹಿಃ ಅಸ್ತಿ ವಾ ತತ್ಸರ್ವಂ ನ ಚಿಂತ್ಯತೆ. ಝಟಿತಿ ಸ್ಥಗನಂ ಕರೋಮಿ ತಾವದೇವ, ಯತ್ರ ಸಂಚಾರ ತತ್ರ ಸ್ಥಗನಂ ಕ್ರಿಯತೆ. ಜಸ್ಟ್ ಫ್ರೀಸಿಂಗ್ ಇಸ್ ಸ್ತಂಭವೃತ್ತಿ. ಏವಂ ಅಪರಃ ಪ್ರಾಣಾಯಾಮಃ ತ್ರಿವಿಧ, ಜಸ್ಟ್ ಹೋಲ್ಡಿಂಗ್ ದ ಬ್ರೆತ್ ಜಸ್ಟ್ ಫ್ರೀಸಿಂಗ್. ಏವಂ ಸಹ ಸ್ತಂಭವೃತ್ತಿ ಪ್ರಾಣಾಯಾಮಃ, ಏವಂ ಸಚ ಪ್ರಾಣಾಯಾಮಃ ತ್ರಿವಿಧ ಸಹ ಸಹಿತಃ ಇತ್ಯುಚ್ಯತೆ. ಪರಂತು ತತ್ರ ಸಹಿತಃ ನಾಮ ತತ್ರ ಪೂರಕಂ ವಾ ರೇಚಕಂ ವಾ ಕುಂಭಕಂ ವಾ ತತ್ ಸಂಬದ್ಧಮೇವ ಭವತಿ. ತತ್ರ ವಿಶಿಷ್ಯ ಪೂರಕ ರೇಚಕಯೋಃ ಏವ ಇದಂ ಅನ್ವೇತಿ. ನಮ ಪೂರಕೇಣ ಸಹ ಕಿಂ ಭವತಿ ಕುಂಭಕಃ ಕ್ರಿಯತೆ. ನಮ ಬಾಹ್ಯ ಪ್ರಾಣಾಯಾಮ ಬಾಹ್ಯ ಪ್ರಾಣಾಯಾಮೋ ನಾಮ ಪ್ರಾಣಸ್ಯ ರೇಚನಂ ಕೃತ್ವ ತೇನ ಸಹ ಕುಂಭನಂ ಯದಾ ಕ್ರಿಯತೆ ಸಹ ಬಾಹ್ಯ ಕುಂಭಕಃ ಇತಿ. ಅಂತಃ ಶ್ವಾಸಸ್ಯ ಸ್ವೀಕಾರಾನಂತರಂ ಯದಿ ಕುಂಭನಂ ಕ್ರಿಯತೆ ತದಾ ಪೂರಕೇಣ ಸಹಿತಃ ಕುಂಭಕಃ ಸಹ ಕುಂಭ. ತತ್ರ ಸ್ತಂಭವೃತ್ತಿ ನಾಮ ಜಸ್ಟ್ ಫ್ರೀಸಿಂಗ್. ಪ್ರಾಧಾನ್ಯೇನ ವ್ಯಪದೇಶಃ ಇತಿ ಕಾರಣೇನ ಅಂತಃಕುಂಭಕಸ್ಯ ಬಾಹ್ಯಕುಂಭಕಸ್ಯ ಚ ಪೂರಕರೇಚಕ ಸಾಹಿತ್ಯೇನ ತ್ರಿವಿಧಃ ಅಪಿ ಪ್ರಾಣಾಯಾಮಃ ಅಯಂ ತ್ರಿವಿಧಃ ಅಪಿ ಪ್ರಾಣಾಯಾಮಃ ಸಹಿತಃ ಇತಿ ಉಚ್ಯತೆ. तत्र किम् किम् इत्युच्यते इति चेत् छत्रिणो यान्ति इति शास्त्रे प्रयोगः भवति. छत्रिणो यान्ति इति चेत् छत्रि अच्छत्रिघटितसमूहे अपि छत्रिणो यान्ति इति प्रयोगः भवति. दशजनाः मिलित्वा गच्छन्तः सन्ति, एकः गणः गच्छति, तस्मिन् गणे सप्तजनानां हस्ते किम् अस्ति? छत्रम् अस्ति. त्रयाणां हस्ते किं नास्ति? छत्रं नास्ति. छत्रं नाम किम्?
आतपत्रम्.
अम्ब्रेला. सप्तानां समीपे छत्रम् अस्ति, त्रयाणां समीपे अम्ब्रेला नास्ति, तथापि सः समूहः किम् इति निर्दिश्यते? छत्रिणः गच्छन्ति. छत्रमस्य अस्ति छत्री, छत्रिणो गच्छन्ति इति. ए त्रयाणां हस्ते छत्रं नास्ति किल भो इति उच्यते चेदपि न, प्राधान्येन व्यपदेशः इति किल. एवमेव जहदजहल्लक्षण, जहल्लक्षण अजहल्लक्षण जहदजहल्लक्षण इत्यादि भवति. तत्र लक्षणावृत्तिः, मुख्यावृत्तिः, लक्षणावृत्तिः, व्यञ्जनावृत्तिः इत्यादि वाक्यार्थसन्दर्भे कथम् अर्थबोधः करणीयः, वाक्यार्थः कथं स्वीकरणीयः इत्यादि चर्चासन्दर्भे इदं सर्वं भवति. अतः तत्र स्तम्भवृत्तिप्राणायामे पूरकसहितं वा पूरकसाहित्यं वा रेचकसाहित्यं वा नास्ति चेदपि तत्र अन्तःकुम्भकस्य बाह्यकुम्भकस्य च तादृश पूरकसाहित्यं रेचकसाहित्यं च अस्ति इति कृत्वा अत्र छत्रिणो यान्ति इत्युदाहरणवत् तया लक्षणया गौणया वृत्त्या स्तम्भवृत्तिप्राणायामोऽपि सहितप्राणायामः इत्युच्यते इति एषः वाक्यार्थः. एवं तत्र शास्त्रीयशैल्या अस्य विवेचनम् एवं क्रियते. प्रश्नः भवति किल, स्तम्भवृत्तिप्राणायामः कथं सहितः इति कथम् उच्यते इति चेत् अनेन अनेन विधानेन तस्य समाधानं वक्तव्यम्. इदं तत्र परप्राणायामेन सह योजयितुं शक्यते खलु इति चेत् इयं स्थितिः दीर्घकालिकी न, बहुकालं धारयितुं न शक्यते स्तम्भनम्. परन्तु सः केवलकुम्भकः तु दीर्घकालं तिष्ठति. अत्यन्तं विशिष्टा स्थितिः सा. पूर्वोक्ताः सर्वेपि प्राणायामाः, अष्टप्रकारकाः प्राणायामाः, नाडीशुद्धिः, एतत् सर्वमपि किं? सहितप्राणायामः एव. देर् आर् वेरियेशन्स् आफ् द सहितप्राणायाम ओन्लि. सहितप्राणायामेन एव कार्यं सिद्ध्यति वा, प्राणायामस्य अन्तिमलक्ष्यं साधितं भवति वा इति चेत् न. अत्र केवलकुम्भकः इति अनुष्ठातव्यः. यदा बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः इति, चतुर्थः प्राणायामः. तत्र क्रमेण 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 सहितप्राणायामस्य अभ्यासेन किं भवति इति चेत् यथा आरम्भे सैकल् यानं चाल्यते अथवा कश्चित् बालः शिशुः किं करोति, सालम्बनः मातरं गृहीत्वा वा पितरं गृहीत्वा वा पितामहं गृहीत्वा वा सालम्बनः चलति. अनन्तरं यदा सामर्थ्ये लब्धे सति स्वयमेव चलति. एवमेव सहितप्राणायामेन आरम्भः, अन्ते तावत् केवलकुम्भके. तत्र एवमेव स्वाभाविकतया एव प्राणः कथं भवति, अत्यन्तं दीर्घः सूक्ष्मः च भवति, केवलकुम्भकः इत्युच्यते. अतः तत्र किम् अस्ति प्राणायामस्य लक्षणं किम् उक्तमस्ति योगसूत्रे? तस्मिन् सति श्वासप्रश्वासयोः गतिविच्छेदः प्राणायामः इति. प्राणस्य चलनं भवति परन्तु अत्यन्तं दीर्घम्, अत्यन्तञ्च दुर्लक्ष्यं सूक्ष्मं भवति. अन्तः वा गच्छतु बहिः वा गच्छतु, कथं चलति? अत्यन्तं दीर्घतया, अत्यन्तं सूक्ष्मतया. तदा जाते सत्येव किं भवति? मनसः विक्षेपः न भवति इति. अग्रे उच्यते य प्राण पवन स्पन्दः चित्त स्पन्दः स एव हि प्राणस्य वेगेन स्पन्दनम् अस्ति चेत् चित्तस्यापि स्पन्दनं भवति द माइंड आल्सो वाइब्रेट्स एज द प्राण वाइब्रेट्स द माइंड आल्सो वाइब्रेट्स यथा प्राणस्पन्दस्य दीर्घत्वं सूक्ष्मत्वं च आपाद्यते तदा चित्तस्यापि स्पन्दः दीर्घः सूक्ष्मः सावधानः भवति अतः अत्र स्मार्यते सर्वाणि कुम्भकानि निरूप्य एते सर्वे कुम्भकाः ये निरूपिताः ते सर्वेपि सहिताः सालम्बनाः अतः कुत्र गन्तव्यं केवलकुम्भकं प्रति योगी गच्छेत् अपरप्राणायामे एव न तिष्ठेत् परप्राणायामः तेन आरोढव्यः इति अग्रे एवं केवलकुम्भकः इति तत्र अवधानम् आकृष्टम् एकसप्ततितमे श्लोके द्विसप्ततितमे श्लोके स च प्राप्तव्यः इति कण्ठतः निर्देशः क्रियते यावत् केवलसिद्धिः स्यात् सहितं तावदभ्यसेत् रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम्
यावत् केवलसिद्धिः स्यात् सहितं तावदभ्यसेत् रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् यावत् केवलसिद्धिः स्यात् सहितं तावत् अभ्यसेत् रेचकं पूरकं मुक्त्वा सुखं यत् वायुधारणम्
सहितप्राणायामः इस् जस्ट् अ मीन्स् एण्ड् नाट् द एण्ड् इति अत्र स्पष्टं प्रतिपाद्यते सहितं तावदभ्यसेत् तावत्पर्यन्तं सहितप्राणायामादीनाम् अभ्यासः करणीयः कियत्पर्यन्तं
यावत् केवलकुम्भकस्य सिद्धिः
तावदेव अतः केवलकुम्भकस्य सिद्धिमुद्दिश्य सहितप्राणायामादीनाम् अभ्यासः कर्तव्यः इति इदं तत्र साधनसाध्यस्पष्टताम् अयं श्लोकः मनसि सम्यक् तद्विषये प्रत्ययम् उत्पादयति केवलकुम्भकस्य स्वरूपं तदुच्यते श्लोकार्धेन रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् केवलसिद्धिः कीदृशी तत्र रेचकमपि न भवति पूरकमपि न भवति सुखेन वायुः तत्र स्थिरो भवति तत्र स्थिरो भवति इति चेत् अत्यन्तं दीर्घतया अत्यन्तं सूक्ष्मतया चलति इत्यर्थः प्राणस्य सर्वात्मा निरोधे सति कथं जीवति कश्चित् अतः अत्यन्तं सूक्ष्मा गतिः आपाद्यते प्राणस्य अनन्तरं प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः कुम्भके केवले सिद्धे रेचपूरकवर्जिते न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते शक्तः केवलकुम्भेन यथेष्टं वायुधारणात्
प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः कुम्भके केवले सिद्धे रेचपूरकवर्जिते न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् प्राणायामः अयम् इति उक्तः सः वै केवलकुम्भकः कुम्भके केवले सिद्धे रेचपूरकवर्जिते न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते शक्तः केवलकुम्भेन यथेष्टं वायुधारणात्
नाम अत्यन्तं सरलः अयं श्लोकः अयमेव वस्तुतः दीप्राणायामः प्राणायामः अयमेव इत्युक्तः अन्यत् सर्वमपि अपरप्राणायामः अयमेव प्राणायामः कः स वै केवलकुम्भकः केवलकुम्भकः एव प्राणायामः अयम् इति अनन्तरं किं भवति कुम्भके केवले सिद्धे केवलकुम्भक तस्य सिद्धिः यदा भवति रेचपूरकवर्जिते रेचकपूरकरहिततया न तस्य दुर्लभं किञ्चित् लोकत्रये अपि तस्य किमपि दुर्लभं नास्ति यतोहि सः अत्यन्तं शक्तः अत्यन्तं शक्तिसम्पन्नः अत्यन्तं सामर्थ्यवान् भवति, यतोहि प्राणः तस्य वशे भवति। कश्चित् मन्त्रः अस्ति प्रश्नोपनिषदि, प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितं मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहिन इति इति। अतः प्राणस्य एव इदं वशे सर्वम्। अतः यः केवलकुम्भकेन प्राणस्य निरोधं यत् नाम प्राणस्य आधारेण सः न जीवति, इदानीं तस् प्राणस्य विषये तत्र तस्य अत्यन्तं स्वामित्वम् आगतम्। अतः यावत्कालं वायुधारणं कर्तुम् इच्छति तावत्कालं धरति, यावत्कालं दीर्घसूक्ष्मतया वायुः चलतु इति सः सङ्कल्पं करोति तथा तत् करोति। अतः तत्र सः स्वतन्त्रः जायते इति कारणेन, यथेष्टं वायुधारणं सः कर्तुं शक्नोति इति कारणेन अत्यन्तशक्तिसम्पन्नः सः, तस्य त्रिषु लोकेषु दुर्लभं किमपि न भवति इति केवलकुम्भकस्य अर्थवादः अयं। नाम केवलकुम्भकस्य महिमा अत्र गीयते। अग्रे राजयोग पञ्चसप्ततितमः श्लोकः। राजयोगपदं चापि लभते नात्र संशयः, कुम्भकात् कुण्डलीबोधः कुण्डलीबोधतो भवेत्, अनर्गला सुषुम्ना च हठसिद्धिश्च जायते।
राजयोगपदं चापि लभते नात्र संशयः, कुम्भकात् कुण्डलीबोधः कुण्डलीबोधतो भवेत्, अनर्गला सुषुम्ना च हठसिद्धिश्च जायते। राजयोगपदं च अपि लभते न अत्र संशयः, कुम्भकात् कुण्डलीबोधः कुण्डलीबोधतः भवेत्, अनर्गला सुषुम्ना च हठसिद्धिः च जायते।
एवं केवलकुम्भके सिद्धे सति किं जायते? प्राणस्य विषये अत्यन्तं स्वामित्वं तस्य सिद्धम् इति एतावता उक्तं, तत् बाह्यमुखेन। अन्तः इतोपि बहुदूरं गन्तव्यं किल? हठयोगः राजयोगाय एव अस्ति, आरम्भे एव अस्माभिः दृष्टम्। येनोपदिष्टा हठयोगविद्या विभ्राजते प्रोन्नतराजयोगम् आरोढुम् इच्छो अधिरोहिणीव। केवलकुम्भकेन बाह्यशक्तिः सामर्थ्यं त्रिषु लोकेषु तस्य दुर्लभत्वं नाम किमपि वस्तु तस्य दुर्लभं न भवति इत्यादि सर्वम् अस्ति। आन्तरिकदृष्ट्या किं भवति इति चेत् सः राजयोगपदमपि लभते, नाम राजयोगस्य परमं पदं यदस्ति असम्प्रज्ञातसमाधिः, सर्वात्मना चित्तवृत्तिनिरोधः, अनन्तरं तत्र आत्मसाक्षात्कारः, तत् सः लभते इत्यत्र संशयः नास्ति। तच्च राजयोगपदं कथं लभ्यते इति चेत् कुम्भकात् कुण्डलीबोधः। कुम्भकाभ्यासेन किं भवति? नानाविधकुम्भकाः भवन्ति किल, भस्त्रिकादिप्राणायामः अस्माभिः दृष्टाः। सः किं करोति इति चेत् सहितप्राणायामान् करोति, अन्ते च सः केवलकुम्भक पारं गच्छति, केवलकुम्भके अत्यन्तं निपुणः भवति। तदनन्तरं सः किं करोति? स्वस्य प्राणायामसामर्थ्यात् सः तत्र भस्त्रिकादीन् उपयुज्य, तत्र इदानीं यदा प्राणायामः इत्युच्यते तस्य नानास्तराः नानाप्रयोगाः नाना उपयोगाः भवन्ति। स एव भस्त्रिकाभ्यासः आरम्भे किं भवति इति चेत् दोषत्रय शमनं करोति। तां भस्त्रिकामेव अभ्यस्य 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 सहित कुम्भकरूपा भस्त्रिकाम् अभ्यस्य स केवलसिद्धिं प्राप्नोति, कः? योगी। अनन्तरं तामेव भस्त्रिकाम् उपयुज्य केवलकुम्भकसिद्धिसम्पन्नः सः योगी किं करोति? सुषुम्नाम् अनर्गलां करोति। एकमेव उपकरणं भस्त्रिकाख्यं, पूर्वं शरीरस्य दोषादिनिवारणार्थं तदुपयुक्तम्। केवलसिद्धिं प्राप्य सः तामेव भस्त्रिकां किमर्थम् उपयुङ्क्ते? ग्रन्थिविभेदनं, कफादि अर्गलनाशनं, तादृशक्रियासु सः उपयुङ्क्ते। इदम् अवगतं वा?
हा, अवगम्यते। पूर्वश्लोकस्य अर्थः इदानीमेव अवगम्यते।
हा, सत्यं। ग्रन्थः कम्पार्ट्मेण्टल् स्टडि इति भवति. येषु दिनेषु इयमेव दुरवस्था अस्ति. हा ओ भस्त्रिका रिलेटेड् श्लोकास् ऐ रीड् द श्लोक ऐ ट्रान्स्लेटेड् अण्ड् द जाब् इस् डन्. नो, भस्त्रिकायाः अवगमनम् अत्र भवति. अत्र किम् उच्यते इति चेत् वस्त्रे हौ आर् द थ्रेड्स्, तन्तवः ओतप्रोतरूपेण भवन्ति. ओतप्रोतरूपेण इति चेत् फ्याब्रिक् इति उच्यते किल, लाङ्गिट्यूड्नल् लाटिट्यूड्नल् इत्येवं तत्र एवं भवति किल. एवं तत्र दे आर् इण्टर्ट्वैन्ड् इति उच्यते किल. एवमेव अस्माकं शास्त्रम्, इदं शास्त्रम्. अतः तया शैल्या एव अध्येतव्यम्. अस्य च पूर्वतनस्य च सम्बन्धः एवम् अवगन्तव्यः. तदा कुम्भकात् कुण्डलीबोधः, कुण्डलीबोधतः भवेत् किं भवेत्? अनर्गला सुषुम्ना, सुषुम्ना अनर्गला भवेत्. कुण्डली यदा, अयमपि एकः विशिष्टः अंशः, इदानीं कुण्डलिन्याः जागरणम् इति उच्यते तन्त्रशास्त्रे. इतरत्र सा कुण्डलिनी काचित् नाम कुण्डलाकारेण वर्तते, नाम सर्क्युलर् फार्म्, कश्चित् सर्पविशेषः इव अस्ति, तं जागरय्य सा कुण्डलिनी जागृता सति. तत्र चक्रेषु सा उत्थाय सहस्रारं प्रविशति इति कुत्रचित् तन्त्रशास्त्रेषु अस्ति. परन्तु हठयोगदृष्ट्या किमस्ति? कुण्डली बोधः, कुण्डलिन्याः उत्थापनं, कुण्डलिनी उत्थाप्य प्रेष्यते, निवार्यते. नाम कुण्डलिनी काचित् तत्र तत्र अवरोधभूता शक्तिः. योगिवर्याः कृष्णमाचार्याः वदन्ति अविद्यायाः मूर्तरूपं कुण्डलिनी इति. अतः तस्याः निवारणम् एवं क्रियते. तदा किं भवति सुषुम्ना? अनर्गला भवति. अर्गलत्वं नाम शृङ्खला, वितौट् एनी ब्लाक्स्. अतः कुण्डलिन्याः निवारणेन सुषुम्ना किं भवति? अनर्गला भवति. सो एसेन्शियली कुण्डलिनी इस् स्वेप्ट् अवे अण्ड् देन् द पात् इस् मेड् फ्री. तदेव हठयोगदृष्ट्या कुण्डलिनी जागरणम् इत्यादि अत्र विवरणम् अस्माभिः द्रष्टुं शक्यते. हठसिद्धिश्च जायते, नाम हठस्य सिद्धिः नाम प्राणस्य सुषुम्नायां प्रवेशनमेव हठसिद्धिः. अनन्तरं चित्तस्य एकाग्रीकरणं, समाधि स्थितिः इत्यादि इस् बियाण्ड् द रेल्म् आफ् हठ इति. तदर्थम् एवं कार्यं प्रवर्तते इति केवलकुम्भकस्य कुम्भकाभ्यासस्य प्रयोजनमत्र एवं कथ्यते. अग्रे, हठं विना राजयोगो, राजयोगं विना हठः, न सिद्ध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत्.
हठं विना राजयोगो, राजयोगं विना हठः, न सिद्ध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत्. हठं विना राजयोगः, राजयोगं विना हठः, न सिद्ध्यति ततः युग्मम् आनिष्पत्तेः समभ्यसेत्.
किमस्ति इति चेत्, पूर्वम् आरम्भे कथितं राजयोगस्य उपकरणभूतः हठयोगः इति पूर्वम्. अधुना किम् इत्युच्यते? परस्परं हठराजयोगौ मिलित्वा गच्छेताम् इति. हठं विना राजयोगः, राजयोगं विना हठः न सिद्ध्यति. हठयोगस्य राजयोग साह्यम् आवश्यकम्, राजयोगस्य हठयोगस्य साह्यम् आवश्यकम्. अतः आनिष्पत्तेः नाम सिद्धिः, नाम अत्यन्तं चित्तवृत्तिनिरोधः यावज्जायते, सर्वात्मना चित्तवृत्तिनिरोधः यावज्जायते, तावत्पर्यन्तं युग्मम् अभ्यसेदिति. मिलित्वा 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 अभ्यासः करणीयः हठयोगराजयोगयोः इति. अत्र किमस्ति इति चेत्, किञ्चित् जागरूकतया अवगन्तव्यं. तत्र हठं, हठस्य काचित् सीमा, तदनन्तरं राजयोगस्य आरम्भः इति आरम्भे काचित् परिकल्पना उद्भाविता. तत्र किमर्थम् इति चेत्, हठयोगाभ्यासमन्तरा कश्चित् राजयोगाभ्यासं प्रवेष्टुं नार्हति, अतः प्रथमं हठमार्गे गन्तव्यम्, अनन्तरं राजयोगस्य प्रवेशः क्रियते. यदा राजयोगस्य प्रवेशः क्रियते, नाम चित्तवृत्ति निरोधार्थं नाना उपायाः तत्र अनुष्ठीयन्ते, तदा हठस्य हठयोगस्य सर्वात्मना परित्यागः करणीयः वा इति चेत् न। तत्रापि आसनप्राणायामादीनाम् अभ्यासः अपेक्षितः। यदि नाम तत्र फौण्डेशन् यदि तत्र चलति तर्हि किं भवति, तत्र अग्रिम अभ्यासः स्थिरो न भवति किल। अस्मात् दृढीकरणं तु करणीयम् आसनप्राणायामाभ्यां, परन्तु अन्तपर्यन्तमपि किं करणीयम्, आसनप्राणायामयोः अनुवर्तनं करणीयम्। हठेन विना निश्चयेन कश्चित् चित्तवृत्तिनिरोधार्थं प्रयत्नं कर्तुं न शक्नोति, अतः हठं विना राजयोगः नास्ति। एवमेव तत्र राजयोगं विना हठः अपि नास्ति इति। तस्य कः अर्थः इति चेत्, एते अभ्यासाः सन्ति किल आसनप्राणायामाद्यभ्यासाः, एते किमर्थाः इति चेत् राजयोगार्थाः एव। राजयोगेन विना एतयोः अभ्यासयोः अवस्थानस्य नाम अनुष्ठानस्य किमपि फलं नास्ति इत्यर्थः। एतयोः प्रयोजनं कदा सिद्ध्यति, आसनप्राणायामयोः प्रयोजनं यदा राजयोगसहितता भवति तदा एव एतेषां सार्थकता। अन्यथा किं भवति इति चेत्, इदानीं या गतिः अस्ति हठयोगस्य सा गतिः भवति, दुरवस्था भवति हठयोगस्य। राजयोगेन विना हठयोगः तिष्ठति चेत्, हठयोगेन विना राजयोगः तिष्ठति चेत् दुरवस्था एव। नाम हठयोगेन विना राजयोगः स्थातुं न शक्नोति, यतोहि इट् नीड्स् द बैकिंग सपोर्ट् आफ् हठयोग। हठयोगः अपि राजयोगसहिततया करणीयः इति। केवलम् अहम् ऐ विल् कम् टु अ योगा स्टुडियो अण्ड् देन् ऐ विल् डू सम् आसनास् अण्ड् प्राणायामास् अण्ड् देन् ऐ विल् सिम्प्लि लीव् वितौट् ट्रैङ्ग् टु फोकस् कण्ट्रोल् द मैण्ड्। तत्र मनसः शमनार्थम् अहं यदि आसनप्राणायामान् न करोमि सः राजयोगः। So, Rajayoga should be incorporated right from the beginning. Ateva asmakam Krishnamacharya Yoga Madhirasya Sampradaye kim kriyate iti chet, asana anushthana samaye eva shwasa gatehe vishaye manapurvakataya anushthanam kartavyam. It is not simply raising arms and lowering the arms. Being completely aware of where the mind is, where the breath is. Mindfulness iti asti kila. तदेव अत्र राजयोगशब्द अर्थः। अतः हठयोगः अपि राजयोगसहिततया करणीयः इति। अतः आसनं कृत्वापि यदि कश्चित् मनःशान्तिं नानुभवति तर्हि तस्य कः अर्थः, सः केवलम् आसनं शारीरिकव्यायामत्वेन भावयति इत्यर्थः। आसने अपि किञ्चित् मनसः एकाग्रीकरणं कर्तुं शक्यते। अतः हठेन विना राजयोगः, राजयोगेन विना हठयोगः, उभौ अपि तत्र न चलतः। अतः आनिष्पत्तेः सिद्धिपर्यन्तम् उभयोः अपि मिलित्वा अनुष्ठानं कर्तव्यम्। अत्र विशिष्य हठशब्देन आसनप्राणायामौ निर्दिष्टौ।
निष्पत्तिः इत्युक्ते सम्प्रज्ञातसमाधिः वा?
आमामामामाम्, असम्प्रज्ञातसमाधिः आत्मसाक्षात्कारः, सा एव निष्पत्तिः। तावत्पर्यन्तमपि उभयमपि मिलित्वा करणीयम्। कुम्भकात् प्राणरोधान्ते कुर्यात् चित्तं निराश्रयम् एवमभ्यासयोगेन राजयोगपदं व्रजेत्।
कुम्भकप्राणरोधान्ते कुर्यात् चित्तं निराश्रयम् एवमभ्यासयोगेन राजयोगपदं व्रजेत्। कुम्भकप्राणरोधान्ते कुर्यात् चित्तं निराश्रयम् एवम् अभ्यासयोगेन राजयोगपदं व्रजेत्।
अत्र पूर्वतनश्लोके उक्तं हठेन विना राजयोगः, राजयोगेन विना हठः न भवेताम् इति उक्तं। तथापि अत्र उद्देश्यं किं, हठात् राजयोगः, राजयोगात् सिद्धिप्राप्तिः इति। तत्र गुणप्रधानभावः तत्र द्रष्टव्यः। हठयोगसन्दर्भे गौणतया राजयोगः भवेत्, राजयोगसन्दर्भे गौणतया हठः भवेत् तथा मिश्रणं करणीयम्। ओ तर्हि अन्ते अपि सम्यक् एकघण्टां यावत् जीवन्मुक्तः रामकृष्णपरमहंसः तावत् आसनप्राणायामादिकं करोति वा? न कर्तव्यं, परन्तु तद्विषये अपि अवधानं भवेत्, तावदेव तत्र उक्तं। तस्मात् तत्र कार्यकारणभावस्य वैपरीत्यं न सिद्ध्येत्, गुणप्रधानतया इदं ग्रहीतव्यम् इत्यतः स्पष्टीक्रियते। यदा हठादेव राजयोगप्राप्तिः, राजयोगादेव अन्तिमसिद्धिप्राप्तिः इति अत्र पुनः स्पष्टीक्रियते। कुम्भकप्राणरोधान्ते कुर्यात् चित्तं निराश्रयम्, नाम अत्र कुम्भकप्राणरोध अन्ते इत्यस्ति। कुम्भकप्राण यदा कुम्भकावस्था सिद्ध्यति तस्य अन्ते, अन्ते इति शब्दस्य मध्ये इत्यर्थः, एण्ड् इति न अर्थः। कुम्भकप्राणरोधः व्याख्याने द्रष्टुमर्हति, व्याख्याने किमस्ति, कुम्भकप्राणायामस्य यो रोधः तस्य अन्ते मध्ये, यदा प्राणः कुम्भकप्राणायामेन स्थिरः तस्याम् अवस्थायाम् इत्यर्थः। तस्याम् अवस्थायां किं करणीयम्? चित्तं निराश्रयं कुर्यात्। अत्र कुम्भकाभ्यासः क्रियते, आदौ सम्प्रज्ञातसमाधिः सिद्ध्यति, नाम प्राणः अत्यन्तं शान्तः भवति, तदा कस्मिंश्चित् विषये अहं मनः यदि तत्र तद्विषये स्थापयामि तदा सम्प्रज्ञातसमाधिं प्राप्तुं शक्नोमि, समग्रतया मनः वस्त्वाकारतां प्राप्नोति। अनन्तरं क्रमेण किं कर्तव्यम् इति चेत्, कुम्भकावस्था तु परिरक्षणीया, नाम इट् इस् नाट् अ वन् टैम् एक्टिविटि, निरन्तरं कुम्भक प्लाट्फार्म् मध्ये सम्प्रज्ञातसमाधिः। सो कुम्भक इस् द बेसिस्, तद् भवेदेव, कुम्भकस्य आवश्यकता अस्ति एव। अत्यन्तं दीर्घसूक्ष्मतया प्राणः, तदा सम्प्रज्ञातसमाधिः, क्रमेण सम्प्रज्ञातात् असम्प्रज्ञातं प्रति आरुहेत् इति। तदेव कुर्यात् चित्तं निराश्रयम्, पूर्वं सालम्बनसमाधिः अनन्तरं निरालम्बनसमाधिः। यदा चित्तं पूर्वं कथमासीत्? कुम्भकावस्था, अनन्तरं मनः सम्पूर्णतया विषयाकारतां भजते इत्यासीत्। तत्रैव दीर्घकालनैरन्तर्य अभ्यासेन कुम्भकसमाधिः, कुम्भकस्थितिः प्राणस्य तत्र सम्प्रज्ञाते अत्यन्तं प्रावीण्यम्, अनन्तरं चित्तं विषयम् अनालोच्यापि, विषय आलम्बनम् अस्वीकृत्यापि किं करोति? निरुद्धं भवति। ता असम्प्रज्ञातसमाधिः निर्बीजावस्था इत्युच्यते। एवमभ्यासयोगेन राजयोगपदं व्रजे, सापि निरालम्बनचित्तावस्था अस्ति किल, तस्यापि अभ्यासः करणीयः, तत्रापि दीर्घकालनैरन्तर्य इत्यादि अस्ति। कियत्पर्यन्तं चित्तं तादृशस्तरे भवति तस्य कालः वर्धमानः वर्धमानः वर्धमानः, अन्ते काचिदवस्था भवति यदा असम्प्रज्ञातावस्थातः कश्चित् पुनः लौकिकप्रज्ञां प्रति नागच्छति। सः असम्प्रज्ञातस्थितिं स्पृष्ट्वा आगच्छति आरम्भे, अनन्तरं किञ्चित् कालं तत्र स्थित्वा आगच्छति, अनन्तरं दीर्घकालं स्थित्वा प्रबोधितः उत्तिष्ठति, अनन्तरं काचित् स्थितिः भवति यदा असम्प्रज्ञातस्थितिं प्रविष्टः ब्रह्मलीनो भवति। अभ्यासयोगे तत्रापि अभ्यासः, slowly the duration of asamprajnata samadhi has to be extended, adayeva rajayoga padam vraje, the goal of rajayoga will be achieved iti 77 madhye parama lakshyam rajayogasya uktam. Inanim antimah shlokah upantya shlokena paramam lakshyam uktam, पुनः अष्टसप्ततितमः अन्तिमः श्लोकः लौकिकप्रयोजनं कथयित्वा तत्र अस्य अध्यायस्य समाप्तिं करोति। ते परमलक्ष्यमुक्त्वा पुनः लौकिक प्रयोजन उच्यते किल अग्रिम श्लोके वपकृशत्वं वदने प्रसन्नता इति इति चेत् अन्ततः एतद् अनु अध्येतॄणां कश्चित् अधीत्य अत्र अभिरुचिं लब्ध्वा सः अग्रे अनुष्ठानं कुर्यात्। ज्ञानम् इच्छा क्रिया इति उच्यते। कश्चित् ओ अय्यो अहं कुम्भकप्राणायामं कृत्वा तत्र ब्रह्मलीनो भवामि चेत् अनन्तरम् अहं कदा प्रत्यागच्छामि, मम कुटुम्बं कः रक्षति इत्यादि सः भीतो न भवेत् किल अध्ययनेन। अतः तस्य प्ररोचनाय पुनः किमुच्यते, लौकिकफलानि उच्यन्ते। यतोहि तस्य अनुष्ठाने इच्छा उत्पादनीया। तदर्थम् अत एव अस्माकं पूर्वजाः परमकारुणिकाः इति उच्यन्ते। ओ एषः अन्तिमं लक्ष्यम् उक्तं, तर्हि एतत् श्रुत्वा कश्चित् धावति चेत् न न सः अनुतिष्ठेत् किल। अतः तस्य प्ररोचनाय अभिमुखीकरणाय पुनः लौकिकं फलमुक्त्वा समाप्यते। वपुः कृशत्वं वदने प्रसन्नता, नादस्फुटत्वं नयनेषु निर्मले, अरोगताबिन्दुजयोग्निदीपनं, नाडी विशुद्धिर्हटसिद्धिलक्षणम्।
वपुः कृशत्वं वदने प्रसन्नता, नादस्फुटत्वं नयनेषु निर्मले, अरोगताबिन्दुजयोग्निदीपनं, नाडी विशुद्धिर्हठसिद्धिलक्षणम्। वपुः कृशत्वं वदने प्रसन्नता, नादस्फुटत्वं नयने सुनिर्मले, अरोगता बिन्दुजयः अग्निदीपनं, नाडी विशुद्धिः हठसिद्धिलक्षणम्।
परमलौकिकप्रयोजनानि उक्तानि सन्ति अत्र। वपुः कृशत्वम् एतदर्थमेव बहवः अद्य योगार्थम् आगच्छन्तः सन्ति। ओबेसिटि, स्लिम्नेस्, फिट्नेस् तदर्थमेव बहवः आगच्छन्तः सन्ति। अतः तत्सिध्यति शते पञ्चाशदिति न्यायेन राजयोगपदमपि लभ्यते। तदर्थम् आदौ वपुः कृशत्वमपि लभ्यते, स्लिम्नेस् अपि साधयितुं शक्यते। वदने प्रसन्नता, मुखे आनन्द आविर्भावः भवति, नाम विच् इस् दि फेस् इस् द इण्डेक्स् आफ् द मैण्ड्। अतः मनः अपि प्रसन्नं भवति, मुखे अपि प्रसन्नता भवति। अनन्तरं नादस्फुटत्वं, नादस्फुटत्वम् इत्यस्य अर्थद्वयं, नाम ध्वनिः समीचीना भवति, वाय्स् कल्चर्। आसनप्राणायामादिकं किमर्थं करणीयम् इति चेत् उत्तम, इफ् यु आर् अ गुड् सिङ्गर् डू आसन अण्ड् प्राणायाम, नादस्फुटत्वं भवति। भवतः ध्वनिः, भवत्याः ध्वनिः कथं भवति? स्फुटा, स्पष्टा भवति इति एकं विवरणं। परन्तु योगशास्त्रदृष्ट्या अपरमपि विवरणमस्ति, नादस्फुटत्वं नाम अनाहतनादः एव अत्र नादः। अग्रे चतुर्थपादे तत्र नादानुसन्धानम् इत्युच्यते। नादस्य विषये चित्तस्य एकाग्रीकरणं करणीयं, नाम हठयोगात् राजयोगं प्रति गन्तव्यं किल। अतः नादस्फुटत्वं नाम स एव नादः, सः स्फुटं श्रूयते इति। इदानीं वयम् अत्र अनाहतनादं श्रोतुं न शक्नुमः। यदा आसनप्राणायामयोः सम्यक् अनुष्ठानं क्रियते तदा एव किं भवति, अनाहतनादस्य श्रवणं सम्यक् भवति, तत्र मनः लीनं भवति, अनन्तरं राजयोगस्य लक्ष्यं प्राप्यते। अतः नादस्फुटत्वम् इत्यस्य अर्थद्वयं, नयने सुनिर्मले, नेत्रयोः अपि तत्र आरोग्यं सिद्ध्यति, ऐस् विल् बि वेरि क्लियर्, पुनः तत्र न कापि समस्या, नेत्ररोगबाधा न भवति इति। अरोगता, अरोगता नाम रोगपीडा रहितत्वं, तन्नाम इम्यूनिटि वर्धते इत्यर्थः। अरोगता, इम्यूनिटि अस्ति चेत् रोगाः पीडयन्ति वा? न पीडयन्ति, रोगनिरोधकशक्तिः एव अरोगता। बिन्दुजयः, बिन्दुजयः नाम मैथुनम् इत्यादिषु विषयेषु मनः चञ्चलं न भवति, अतः सेन्शुवल् आक्टिविटि मध्ये मनः न गच्छति, मनः स्थिरं भवति इत्यर्थः बिन्दुजयः इत्युच्यते। अनन्तरम् अग्निदीपनं, सम्यक् जठराग्निः सम्यक् कार्यं करोति येन अपिटैट् सम्यक् भवति। जठराग्निः सम्यक् कार्यं करोति चेदेव शरीरे सर्वत्र प्राणस्य प्रचारः भवति, प्रचारो नाम चलनम्। यदि प्राणः सर्वत्र अनवरुद्धः सञ्चरति तदा शरीरे तत्र स्वास्थ्यं सिद्ध्यति। अतः अनन्तरं नाडी विशुद्धिः, नाडीनां यदा जठराग्निदीपनं भवति तदा नाडीनां विशुद्धिः अपि जायते, प्राणस्य सर्वत्र प्रवेशः। एवम् आसनप्राणायामरूपहठयोः नाम हठाङ्गयोः सिद्ध्या एवम् अष्टविधप्रयोजनानि, अपकृशत्वं, वदने प्रसन्नता, नादस्फुटत्वं, नयने सुनिर्मले अरोगता, बिन्दुजयः, अग्निदीपनं, नाडीविशुद्धिः इति अष्टप्रयोजनानि हठाभ्याससिद्धिसूचकानि। तत्रापि विशिष्य आसनप्राणायामयोः अभ्यासेन इदं सर्वं सिद्ध्यति इति शम् इति शम् अयं द्वितीयः उपदेशः। अग्रिमः तृतीयः उपदेशः मुद्राविषये अस्ति। अत्र यथा अष्टकुम्भकाः तथा तत्र दशमुद्राः सन्ति, तद्विषये पश्यामः। श्रियादिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या, विभ्राजते प्रोन्नतराजयोगमारूढुमिच्छो रथिरोहिणीव।